इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी कृष्यर्थशास्त्रीणां द्वात्रिंशत्तमस्य अन्ताराष्ट्रिय सम्मेलनस्य उद्घाटनं विहितवान्, सम्बोधितवान् च। भारतं खाद्य समृद्ध राष्ट्रमस्ति, सममेव वैश्विक खाद्य सुरक्षायाः वैश्विक पोषण सुरक्षायाश्च उपायेषु संलग्नमस्ति। केरलराज्ये वायनाड क्षेत्रे भूस्खलन प्रभावित क्षेत्रेषु सेनाद्वारा मानवीय सहायोद्धार कार्याणि निरन्तर्येण प्रचलन्ति। बांग्लादेशे आरक्षण विरोधि प्रदर्शनकारिणः नवसूत्रगताभ्यर्थनानि गृहीत्वा श्वः आरभ्य देशव्यापिनः असहयोगक्रान्तेः घोषणां कृतवन्तः। अपि च अमेरिकादेशः पश्चिमैशियायां वर्धमानां व्याकुलताम् अन्वीक्ष्य स्वीय सैन्योपस्थिति संवर्धयितुं निर्णयं निर्णीतवान्। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना समुदीरितं यत् भारतं खाद्य समृद्ध राष्ट्रमस्ति, सममेव वैश्विक खाद्य सुरक्षायाः वैश्विक पोषण सुरक्षायाश्च उपायेषु संलग्नमस्ति। असौ अग्रे अवदत् यत् सर्वकारः संशोधनैः सह कृषिक्षेत्रं सुदृढं कुर्वन्नस्ति, अथ च अस्योद्देशं कृषकाणां जीवने संशोधनस्य आनयनं वर्तते। अद्य नवदिल्ल्यां कृष्यर्थशास्त्रिणां द्वात्रिंशत्तमं अन्ताराष्ट्रिय सम्मेलनं सम्बोधयन् श्रीमोदी अवदत् यत् कृषिः प्रशासनस्य आर्थिकनीतेः केन्द्रबिन्दुः अस्तीति। अनेन पुनः भणितं यत् भारतं तृणधान्यानां, दुग्धस्य, द्विदलानाम्, उपस्कराणां च बृहत्तमः उत्पादकदेशो विद्यते। प्रधानमन्त्री उक्तवान् यत् भारतं रासायनिकमुक्त प्राकृतिक कृषिं संवर्धयति। अस्य वित्तीयवर्षस्य केन्द्रीयायव्ययकेऽपि सततकृषेः कृते ध्यानं प्रदीयते। श्रीमोदी अभिव्यक्तवान् यत् प्रशासनेन गतदशवर्षेषु नवशताधिकैकसहस्रं नूतनानां ऋतुअनुकूलसस्यानाम् अनेकप्रकारकाः प्रदत्ताः। अमुना भणितं यत् देशस्य कृषिक्षेत्रे प्राविधिकप्रौद्योगिकीमपि उपयुञ्यते। अपि च प्रधानमन्त्री किसान सम्माननिधि योजनान्तर्गतं एकेन नूंदनेन सह दशकोटिः कृषकाणां वित्तकोषेषु धनं स्थान्तरितं जातम्। एतस्मिन् अन्ताराष्ट्रिय सम्मेलने प्रायशः पञ्चसप्ततिः देशानां सहस्राधिकाः प्रतिनिधयः भागं गृह्णन्ति। अस्य वर्षस्य सम्मेलनस्य विषयो विद्यते सतत कृषि खाद्य प्रणाली दिशि परिवर्तनमिति। अस्मिन् अवसरे केन्द्रीय कृषि मन्त्री शिवराज सिंह चौहानः अवदत् यत् प्रधानमन्त्रिणः श्रीमोदिनः नेतृत्वे भारतस्य कृषिवृद्धिः निरन्तरं विश्वे एव सर्वाधिकी वृद्धिः विद्यते इति। केरलराज्ये वायनाड क्षेत्रे भूस्खलन प्रभावित क्षेत्रेष् सेनाद्वारा मानवीय सहायोद्धार कार्याणि नैरन्तर्येण प्रचलन्ति। अद्य पञ्चमे दिवसेऽपि त्रयोदश शताधिकानि उद्धारकदलानि तथा च यन्त्राणि, परिष्कृतानि उपकरणानि च अन्वेषणकार्ये संलग्नानि सन्ति। सेना आपत्मोचन बल इत्यादिभिः दलैः सह उद्धार कर्मचारिणः शवानाम् अन्वेषणे निरताः सन्ति। केन्द्रीय गृहमन्त्री अमितशाहः सर्वान् नागरिकान् आग्रहं कृतवान् यत् ते हर घर तिरंगा इत्यभियाने दत्तचित्ताः भवेयुः, पुनश्च एतस्मिन् अभियाने उत्साहेन भागं गृह्णन्ति इति। सामाजिक सञ्जालीयेकस्मिन् सन्देशे श्रीशाहः जनान् त्रिवर्णात्मक ध्वजोत्तोलनम् अगस्तमासस्य नवदिनांकात् पञ्चदशदिनांकपर्यन्तं स्वगृहेषु प्रदर्शयितुं वा आहूतवान्। असौ अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः हर घर तिरंगा अभियानं विगतवर्षद्वये राष्ट्रियान्दोलनरूपेण विकसितं जातम्। श्रीशाहः जनान् उक्तवान् यत् ते त्रिवर्णध्वजेन सह स्वच्छायाचित्रम् इति गृह्णन्तु तथा च हर घर तिरंगा इति सञ्जालपुटे हरघरतिरंगा.com इत्यत्र प्रेषयन्तु। सर्वोच्च न्यायालय द्वारा आयोजितस्य विशिष्ट लोक न्यायालयस्य अद्य अन्तिमदिवसो विद्यते। अस्य प्रमुखोद्देश्यं नागरिकेभ्य यथोचितं सरलं त्वरित न्यायप्रदानं चास्ति। सर्वोच्च न्यायालयेन स्वीयस्य पञ्चसप्ततिः तमस्य वार्षिकोत्सवस्य उपलक्ष्ये अयं पदक्षेपः उत्थापितः। अवधेयं वर्तते यत् लोकन्यायालयाः सरलं कौशलयुतञ्च न्यायप्रदानं कुर्वन्ति इति यत् द्रुतगतिं युतं अल्पमूल्ययुतं च भवति अत्रावसरे सत्रं सम्बोधयन् विधिन्यायमन्त्री अर्जुन राम मेघवालः प्रख्यापितवान् यत् अस्मिन् लोकन्यायालये एकसहस्राधिकं प्रकरणानां निदानमपि जातं तदनु समारोहे मुख्यन्यायाधीशः डीवाई चन्द्रचूडः अपि लोकन्यायालयस्य समिति संरचना विषयं प्रख्यापितवान् प्रियाः श्रोतारः संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति बांग्लादेशे आरक्षण विरोधि प्रदर्शनकारिणः साम्प्रतिके काले जातान् वधान् विरुध्य प्रदर्शनं कर्तुम् अपि च नवसूत्रगताभ्यर्थनानि प्रति बलं दातुं श्वः आरभ्य देशव्यापी क्रान्तेः घोषणां कृतवन्तः एते प्रदर्शनकारिणः बांग्लादेशे मञ्चस्थाः भवन्तः प्रदर्शनं कुर्वन्ति भेदभावी विरोधि विद्यार्थी क्रान्तेः समन्वयकद्वयेन ह्यः विभिन्नेषु सामाजिक सञ्चारपटलेषु निजकार्यक्रमाः उद्घोषिताः सप्ताहद्वयस्यान्ते बांग्लादेशे ह्यः जातायां हिंसायां विविधेषु स्थलेषु द्वौ जनौ दिवंगतां प्राप्तवन्तौ अनेके च व्रणिताः जाताः ह्यः सायं शासनारूढस्य आवामी लीग इत्येतस्य महासचिवः मार्ग परिवहन मन्त्री च ओ बैदुल कादरः ढाकायां जाते वार्ताहर सम्भाषणे कथितवान् यत् सुरक्षाकर्मिभिः विद्यार्थिनः नैव पीडितव्याः तथा च कारावासे न गृहीतव्याः इति अमेरिकादेशः पश्चिमैशियायां वर्धमानं व्याकुलताम् अन्वीक्ष्य स्वीयसैन्योपस्थिति संवर्धनाय निर्णयम् एकं निर्णीतवान् परिवर्तनमिदं इस्राइलद्वारा अधुनावधौ हमास हिज्बुल्ला इत्यनयोः नेतृषु कृतप्रहाराणां प्रत्युत्तरे पश्चिमैशियायाम् अभिमुख हिंसाम् अभिलक्ष्य समागतम् अस्ति एतेषां प्रहाराणाम् अनन्तरं नैरन्तर्येण कठोराचरणस्य समाह्वानानि अपि समागतानि सन्ति अमेरिकायाः रक्षाविभागेन एकस्मिन् प्रसंगे ख्यापितं यत् रक्षामन्त्री लॉयड ऑस्टिन इत्येषः यूरोपीय पश्चिमैशिया क्षेत्रयोः अतिरिच्य बैलिस्टिक प्रक्षेपास्त्र रक्षा सक्षम समूहान् नियोजयितुमपि आदेशं प्रदत्तवान् अमेरिकादेशीयः रक्षाविभागः समुदीरितवान् यत् असौ एकं योद्धृ विमानं पश्चिम एशिया क्षेत्रं प्रति नेष्यति इति अवधेयं वर्तते यत् ईरानदेशस्य राजधान्यां तेहरान नगरे हमास नेतुः इस्माइल हानियेह इत्येतस्य मंगलवासरे च बैरूतनगरे वरिष्ठस्य हिज्बुल्लाह इत्यस्य सेनापतेः फौज शुकर इत्येतस्य च वधेन क्षेत्रीय युद्धस्य संकटम् अस्ति प्रत्युत्तरे च ईरानदेशेनापि कठोराचरणस्य समाह्वानं प्रदत्तम् प्रियाः श्रोतारः संस्कृतजगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृतसाप्ताहिकीति विशिष्टकार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने सार्धैकवादनतः भविष्यन्ति भवन्तः सर्वे श्रोतुं प्रभवन्ति अन्ते च मुख्यवार्ताः पुनरेकवारम् प्रधानमन्त्री नरेन्द्र मोदी कृष्यर्थशास्त्रिणा द्वात्रिंशत्तमस्य अन्ताराष्ट्रिय सम्मेलनस्य उद्घाटनं विहितवान् सम्बोधितवान् च भारतं खाद्य समृद्ध राष्ट्रमस्ति सममेव वैश्विक खाद्य सुरक्षायाः वैश्विक पोषण सुरक्षायाश्च उपायेषु संलग्नमस्ति केरलराज्ये वायनाड क्षेत्रे भूस्खलन प्रभावित क्षेत्रेषु सेनाद्वारा मानवीय सहायोद्धार कार्याणि नैरन्तर्येण प्रचलन्ति बांग्लादेशे आरक्षण विरोधि प्रदर्शनकारिणः नवसूत्रगताभ्यर्थनानि गृहीत्वा श्वः आरभ्य देशव्यापिनः असहयोग क्रान्तेः घोषणां कृतवन्तः अपि च अमेरिकादेशः पश्चिमैशियायां वर्धमानं व्याकुलताम् अन्वीक्ष्य स्वीय सैन्योपस्थिति संवर्धयितुं निर्णयं निर्णीतवान् इति वार्ताः